इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। वित्तमन्त्री निर्मला सीतारामन अद्य प्रातः 11 वादने चतुर्विंशत्युत्तर पञ्चविंशत्युत्तर 2000तमवर्षीयं केन्द्रीय वित्त संकल्पना पत्रं प्रस्तोष्यति। नरेन्द्रमोदिनः सर्वकारस्य तृतीय कार्यकालस्य एतत् प्रथमं आयव्यय विवरणं भविष्यति। ह्यः उभयोः सदनयोः 23-24-2000तमवर्षीयं आर्थिक सर्वेक्षणं प्रास्तोत। आर्थिक सर्वेक्षणे वास्तविक सकल गृहोत्पादनस्य वृद्धेः परिमितिः प्रतिशतं सार्ध षड्मितात् सप्तमिताभ्यन्तरे स्थास्यति इति अनुमीयते। रिजर्वबैंकेनापि प्रवर्तमान वित्तवर्षे मुद्रास्फीतिः प्रतिशतं 0.5-4 आशास्यते। आर्थिक सर्वेक्षणे प्रोक्तमस्ति यत् उत्पादानां व्यापाराणां सेवानां च निर्याते वृद्धिः सम्भाव्यते। सर्वेक्षणस्यानुसारं वस्तु सेवाकरस्य ऋणशोधनस्य च वैधानिक प्रावधानेषु आधिकारिक परिष्काराः अपि परिपक्वाः अजायन्त, येन तेषां वांछित परिणामाः प्राप्यमाणाः सन्ति। अपरत्र च महार्घता विषये रिजर्वबैंकेन आगामिनि वित्तवर्षे मुद्रास्फीतेः मुख्य परिमितिः प्रतिशतं 0.25 अथ च 26-2000तमे वित्तवर्षे प्रतिशतं 0.1-4 भविष्यति इति आशास्ते। अन्ताराष्ट्रिय मुद्राकोषेन भारताय अस्मिन् वर्षे मुद्रास्फीतिः प्रतिशतं 0.6-4 अथ च आगामिनि वित्तवर्षे प्रतिशतं 0.2-4 अनुमितम् अस्ति। चतुर्विंशत्युत्तरद्विसहस्रतमवर्षीय सकलगृहोत्पादानां वास्तविकी परिमितिः 2020तमवर्षस्य तुलनायाः प्रतिशतं 20मितम् अधिकम् अवर्तत। अस्मिन् वर्षेऽपि वृद्धिपरिमितिः सुदृढा भविष्यति इति सम्भाव्यते। सर्वेक्षणानुसारं जीविकाहीनतायाः बहुपक्षीयनिर्धनतायाः च क्षेत्रेषु नैन्यम् श्रमबलसहभागितासु च समेधनं जातमस्ति, येन विकासस्य स्थितिः समावेशितापूर्णा अवर्तत। सर्वेक्षणे प्रोक्तमस्ति यत् सकलगृहोत्पाद परिमितौ अस्मिन् वर्षे प्रतिशतं 0.2-8 वृद्धिः जाता अस्ति, अथ च एतद्धि निरन्तरं प्रतिशतं 7 अधिकं समेधनं जातमस्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रोक्तवान् यत् अद्य प्रस्तोष्यमाणं वित्तसंकल्पनापत्रकम् अमृतकालस्य महत्वपूर्णम् आयव्ययविवरणं भविष्यति। संसदः वित्तसंकल्पनासत्रात् पूर्वं संसदः बहिः वार्ताहरैः समं सम्भाषमाणः श्रीमोदी उक्तवान् यत् लोकसभानिर्वाचनेषु देशस्य जनतया निर्णयः प्रदत्तः अस्ति यत् सर्वैः राजनीतिकदलैः सम्भूय आगामि 5 वर्षपर्यन्तं देशस्य कृते कार्यम् आचरणीयम्। श्रीमोदिना प्रोक्तं यत् अहं देशवासिभ्यः प्रत्याभूतिं ददामि यत् वयं पूर्वविहितानां प्रतिश्रुतीनां धरातले क्रियान्वयनस्य लक्ष्यं निध्याय अग्रे वर्धामहे। एतद् वित्तसंकल्पनापत्रकं 5 वर्षेभ्यः सर्वकारस्य कार्याणां दशां दिशां च विनिश्चेष्यति। अस्मिन्नवसरे श्रीमोदिना कथितरूपेण नकारात्मक राजनीति विधानपराणां विपक्षिदलानां कटु आलोचनां कुर्वता प्रोदीरितं यत् तैः निज विफलताः निगूढयितुं संसदः समयोऽपि विनष्टीकृतः। सांस्कृतिक पर्यटन मन्त्री गजेन्द्र सिंह शेखावतः ह्यः अवदत् यत् षड् भारतीय भाषाभ्यः तमिल संस्कृत कन्नड तेलुगु मलयालम ओडिया च शास्त्रीय भाषायाः रूपेण मान्यता प्रदत्ता अस्ति इति वार्ताः।